एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नवनियुक्तेन प्रधानमन्त्रिणा केपी शर्मा ओलिना ह्य पदगोपनीयतयोः शपथः गृहीतोऽस्ति। शीतल निवासवर्तिनी राष्ट्रपतेः कार्यालये आयोजिते शपथग्रहण समारोहे राष्ट्रपतिः रामचन्द्र पौडेलः प्रधानमन्त्रिणम् ओलिनम् पदगोपनीयतयोः शपथम् अग्राहयत्। प्रधानमन्त्री ओली नेपाली कांग्रेस दलस्य समर्थनेन संविधानस्य षट्सप्ततितम्या धारायाः द्वितीयोपधारायाः अनुसारेण चतुर्थवारं देशस्य प्रधानमन्त्री पदे नियुक्तो वर्तते। समारोहे राष्ट्रपतिः पौडेलः उपप्रधानार्थमन्त्रिणं विष्णु पौडेलम् उपप्रधान नगरीय विकास मन्त्रिणं प्रकाशमान सिंहं च पदगोपनीयतयोः शपथम् अग्राहयत्। एवमेव राष्ट्रपतिः पौडेलः नवनियुक्तान् मन्त्रिणश्च पदगोपनीयतयोः शपथम् अग्राहयत्। राष्ट्रपतिः पौडेलः संचार सूचना प्रविधि मन्त्री पदे पृथ्वी सुब्बा गुरूङ इत्यमुम्, गृहमन्त्री पदे रमेश लेखकम्, श्रमवृत्ति सामाजिक सुरक्षा मन्त्री पदे शरद सिंह भण्डारिणम्, परराष्ट्र मन्त्री पदे डाक्टर आरजू राणाम, पेयजल मन्त्री पदे प्रदीप यादवम, भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री पदे बलराम अधिकारिणम, उद्योग वाणिज्य आपूर्ति मन्त्री पदे दामोदर भण्डारिणम च पदगोपनीयतयोः शपथम् अग्राहयत्। एवमेव राष्ट्रपतिः पौडेलः महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री पदे नवल किशोर साहम, भौतिक पूर्वाधार यातायात मन्त्री पदे देवेन्द्र दाहालम, युवा क्रीडा मन्त्री पदे तेजुलाल चौधरीणम, स्वास्थ्य जनसंख्या मन्त्री पदे प्रदीप पौडेलम, विधि न्याय संसदीय विषय मन्त्री पदे अजय कुमार चौरसी इत्यमुम, संस्कृति पर्यटन नागरिक उड्डयन मन्त्री पदे बद्री प्रसाद पाण्डेयम, कृषि पशुपक्षी विकास मन्त्री पदे रामनाथ अधिकारिणम, शिक्षा विज्ञान प्रविधि मन्त्री पदे विद्या भट्टराई इतिमाम, रक्षा मन्त्री पदे मानवीर राई इत्यमुम, ऊर्जा जलस्रोत सेचन मन्त्री पदे दीपक खड्काम, संघीय विषय सामान्य प्रशासन मन्त्री पदे राजकुमार गुप्ताम, वन वातावरण मन्त्री पदे ऐन बहादुर शाही ठकुरी इत्यमुम छ पदगोपनीयतयो शपथम् अग्राहयत। शपथ ग्रहण समारोहे उपराष्ट्रपतिः निवर्तमान प्रधानमन्त्री प्रधान न्यायाधीशः प्रतिनिधिसभायाः सभामुखः राष्ट्रियसभायाः अध्यक्षः पूर्व प्रधानमन्त्रिणः संवैधानिक निकायानां प्रमुखः कूटनीतिक निकायानां प्रतिनिधयः सांसदः साधारणजनाश्च उपस्थिताः आसन्। नवनियुक्तेन प्रधानमन्त्रिणा ओलिना ह्य सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालयं प्राप्य पदभारः गृहीतो वर्तते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं पदगोपनीयतयोः शपथस्य ग्रहणानन्तरं अध्यक्षः ओली लयनचौरवर्तिनी हुतात्मोद्यानं प्राप्य हुतात्मनः प्रति श्रद्धाञ्जलिम् अर्पयत्। प्रधानमन्त्रिणः ओलिनः कार्यालय प्रवेशन समये सर्वकारस्य निमित्त मुख्य सचिवः लीलादेवी गर्तौला, सचिवः उच्च अधिकारिण स्वागतम् विहितवन्तः। नवनियुक्तः प्रधानमन्त्री केपी शर्मा ओली नेकपा दलस्य त्रयाणां शीर्ष नेतृणां प्रति मासु माल्यार्पणं व्यदधात्। पदगोपनीयतयोः शपथ ग्रहणानन्तरं ललितपुरस्य च्यासलवर्तिनी नेकपा एमाले दलस्य केन्द्रीय कार्यालयं प्राप्य प्रधानमन्त्री ओली नेकपा दलस्य संस्थापक नेतुः पुष्पलाल श्रेष्ठस्य, एमाले दलस्य पूर्वाध्यक्षस्य मनमोहन अधिकारिणः, तात्कालिकस्य महासचिवस्य मदन भण्डारिणश्च प्रतिमासु च माल्यम् अर्पितवान्। ओलिना सहैव एमाले दलस्य पक्षतः नियुक्तैः अन्यैः मन्त्रिभिरपि दल कार्यालयं प्राप्य संस्थापक नेतृणां प्रतिमासु माल्यार्पणं विहितम्। एवमेव नेपाली कांग्रेस दलस्य पक्षतः नियुक्तैः उपप्रधानमन्त्रिणा प्रकाशमान सिंहेन सह अन्यैः मन्त्रिभिरपि सानेपावर्तिनी नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयं गत्वा जननायक एकस्य प्रथम जननिर्वाचितस्य प्रधानमन्त्रिणः विश्वेश्वर प्रसाद कोइरालाभिदस्य प्रतिमायां माल्यार्पणं विहितं वर्तते। नवनियुक्तः उपप्रधानार्थमन्त्री विष्णु पौडेलः अर्थतन्त्रस्य सर्वाणि क्षेत्राणि प्रभावकारी रूपेण परिचालयितुं प्रतिबद्धतां व्यनक्ति। ह्य अर्थमन्त्रालये पदभार ग्रहणस्य पश्चात् नवनियुक्ता अर्थमन्त्री पौडेलः देशस्य समग्र अर्थतन्त्रस्य विकासस्य कार्ये सर्वकाराय समेषां क्षेत्राणां सहयोगः प्राप्स्यते इति विश्वासं व्यक्तवान्। अर्थमन्त्री पौडेलः देशे उत्पादनं वर्धयितुं वृत्त्युपार्जनानि स्रष्टुम् आर्थिकाभिवृद्धये अनुकूलं वातावरणं निर्मातुं च सर्वकारः क्रियाशीलो भवति इति प्रतिबद्धतां व्यक्तवान्। शपथ ग्रहणस्य पश्चात् ह्यैव संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन, गृहमन्त्रिणा रमेश लेखकेन, स्वास्थ्य मन्त्रिणा प्रदीप पौडेलेन, रक्षा मन्त्रिणा मानवीर राई इत्यनेन च हे यव पदभार सनिर्गुण हो वर्तते। तदवसरे संचार मन्त्री गुरूङ सर्वकारेण सूचना प्रविधि प्रयोगाय उच्चै प्राथमिकता प्रदीयते इति अवोचत। गृहमन्त्री लेखकः विधेय शासनाय शान्ति सुरक्षायै अपराधस्य नियन्त्रणाय च दत्तचित्तेन प्रवर्तते इति प्रतिबद्धता व्यक्तवान। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेल अर्बुद रोगात् जनान् रक्षितुं विशिष्टेण प्रयत्यते इति प्रतिबद्धताम् अभिव्यनक्। सर्वकारेण जलविप्लव भूस्खलनादिषु प्राकृतिक प्रकोपेषु निपत्य मृतानां जनानां परिवारेभ्य सहयोगं प्रदातुं निर्णीतमस्ति। नवसंगठित सर्वकारस्य प्रथम मन्त्री परिषद उपवेशेन सम्प्रति एव दुरापन्नेषु जलविप्लव भूस्खलनादिषु प्राकृतिक प्रकोपेषु निपत्य मृतानां जनानां परिवारेभ्य सहयोगं प्रदातुं निर्णीतमस्ति इति संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ संचार कर्मिणः अज्ञापयत्। उपवेशेन विपदः कारणेन विलोपनानन्तरं घटनायाः पश्चात् दश दिनानि व्यतीतानि सन्ति चेत् तादृशानां जनानां परिवारेभ्य अपि मृतकानामिव सहयोगं दापयितुं निर्णीतमिति सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ असूचयत्। उपवेशेन जाजरकोट भूकम्पेन प्रभावितेभ्य परिवारेभ्य द्वितीय चरणस्य तृतीय चरणस्य सहयोग वित्तं प्रदातुं निर्णीतमस्ति। मन्त्री परिषद उपवेशेन आगामिनः विक्रम वर्षस्य आषाढ मासान्तं यावत् नेपालं मार्ग बाल बालिका मुक्तं देशं सम्पादयितुं निर्णीतमस्ति। एवमेव उपवेशेन परिवर्तिते सन्दर्भे मन्त्री परिषद विभिन्न समितिषु वा प्रक्रियायां स्थितान् प्रक्रियायां न प्राप्तान् च प्रस्तावान् सम्बद्ध मन्त्रालयेषु प्रत्यावर्तयितुं निर्णीतमस्ति। उपवेशेन प्रधानमन्त्री कार्यालयस्य निमित्त मुख्य सचिवाय लीला देवी गर्तौला इत्यस्यै मुख्य सचिवस्य दायित्वं प्रदातुं निर्णीतम् इति सर्वकारस्य प्रवक्ता गुरूङ असूचयत्। मन्त्री परिषद उपवेशेन त्रिभुवन विश्वविद्यालयस्य क्रिकेट क्रीडा प्रांगणम् आधुनिक प्रविधि विशिष्टं विधातुं च निर्णीतमस्ति। अद्य आराष्ट्रं श्रावण संक्रान्ति पर्व समायोज्यते। सौरमानानुसारेण सूर्य दक्षिणायनम् यत्य कर्कट रेखायाः उपरि प्राप्तो स्थिति हेतोः दिवसोऽयं कर्कट संक्रान्ति नाम्नापि प्रथितो विद्यते। कृषि प्रधान देशे नेपाले आषाढ मासे विहितेन कृषिकर्मणा श्रान्त कृषकैः पंकजातं प्रक्षाल्य स्वकीयैः बन्धु मित्रैस्सह प्रमोदावहे वातावरणे अद्य भोजनं भुज्यते। आषाढ मासस्य पंकस्य कारणेन सम्भाव्याद् रोगाद् रक्षितुं चर्म रुजो निराकरणस्य च उद्देश्येन पर्वेदम् आयोज्यते इति लोके विश्वासोऽस्ति। अद्य निम्ब जम्बोर दाडिमा प्रभृतिकानि फलानि समर्प्य कण्डारक नामकस्य रक्षसः पूजनात् चर्मरोगस्य प्रकोपात् मुक्तिः प्राप्यते इति विचार्य विविधं वनस्पति जातं प्रज्वाल्य प्रतिगृहं चतस्रिषु दिक्षु उल्मुख माध्यमात् चर्मरोग प्रक्षेपण प्रचलनं च वर्तते। राष्ट्रियसभया त्रीणि विधेयकानि पारितीकृत्य प्रतिनिधिसभायां प्रेषितमस्ति। तत्पूर्वं पारितीभूतानि एतद्विक्रमवर्षीयाणि सीमा प्रवेश शुल्कार्थिक राष्ट्रऋणोत्थापन विधेयकानि आधृत्य उपवेशे सूत्रगतं विमर्शनं सम्भूतमस्ति। राष्ट्रियसभाया अपरोपवेश अस्यैव श्रावण मासस्य चतुर्थे दिवसे शुक्रवासरे दिवा सपादैकवादने वस्ता। कालीकोट जनपदस्य राजकोट नगरपालिकायाः पञ्चम ओडा क्षेत्रस्य आरसीपी बजार निकटस्थे स्थले ट्रैक्टर यानस्य दुर्घटनायां चालकः मृतः अन्य जनद्वयम् आहतञ्च वर्तते। राजकोट नगरपालिकायाः आरसीपी बजार स्थानात् फुकोट स्थानं प्रति प्रस्थितं ट्रैक्टर यानम् आरसीपी बजार स्थान निकटस्थे स्थले कोण मार्गे दुर्घटितं सद् आहतेषु त्रिषु जनेषु चालकः वीर परियार उपचाराय नयनस्य क्रमे मृतो स्थिति प्रहरिणा ज्ञापितमस्ति। चितवन जनपदस्य भरतपुर महानगरपालिकायाः 29 वडा क्षेत्रस्य सिमलताल स्थाने गत शुक्रवासरे भूस्खलनेन बसयानद्वयं प्रवाहितं सत् विलुप्तेषु जनेषु त्रयोदशानां जनानां शवाः प्राप्ताः सन्ति। नवलपुर जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रहरी नायब उपरीक्षकः वेदबहादुर पौडेलः ह्य एव नवलपुर जनपदे चत्वारः शवाः प्राप्ताः सन्ति इति अज्ञापयत्। नवलपुरे अधुनावधि प्राप्तेषु नवसु शवेषु पञ्च शवाः त्यापिताः सन्ति, ते च बसयानस्य यात्रिणामेव इति पुष्टिभूतं चास्ति इति सूचनाधिकारी पौडेलः अज्ञापयत्। नेपाल तैल निगमेन पेट्रोल डिजेल मृत्तिका तैलानां मूल्यं वर्धितमस्ति। निगमेन अद्य श्रावणस्य प्रथम दिवसात् क्रियान्वयन त्वेन पेट्रोल तैले प्रति लिटर चत्वारी डिजल मृत्तिका तैल हो प्रति लिटर अमितम त्रीणि रूपियाँ च मूल्यम वर्धयितुम निर्णीतम स्थिति निगमस्य प्रवक्ता मनोज ठाकुर ज्ञापयत्।